श्रीमद्भागवत महापुराणम् एकादशस्कन्धः अथ दशमोऽध्यायः। श्रीभगवानुवाच, मयोदितेष्वहितस्वधर्मेषु मदाश्रयः, वर्णाश्रमकुलाचारमकामात्मा समाचरे, अन्वीक्षेत विशुद्धात्मा देहिनां विषयात्मनां, गुणेषु तत्त्वध्यानेन सर्वारम्भविपर्ययम्, सुप्तस्य विषयालोको ध्यायतो वा मनोरथः, नानात्मकत्वाद्विफलस् तथा भेदात्मधीर्गुणैः निवृत्तं कर्म सेवेत प्रवृत्तं मत्परस्त्यजेत्। जिज्ञासायां संप्रवृत्तो न द्रेत् कर्म चोदनां, यमानभीक्ष्णं सेवेत नियमान् मत्पर क्वचित्, मदभिज्ञं गुरुं शान्तमुपासीत मदात्मकम्, अमान्यमत्सरो दक्षो निर्ममो दृढसौहृदः, असत्त्वरोऽर्थजिज्ञासुरनसूयुरमोघवात्, जायापत्यगृहक्षेत्रस्वजनद्रविणादिषु, उदासीनः समं पश्यन् सर्वेष्वर्थमिवात्मनः, विलक्षणस्थूलसूक्ष्मादेहादात्मीक्षितास्वदृक्, यथाग्निर्दारुणो दाह्यादाहको न्यः प्रकाशकः, निरोधोत्पत्यनुबृहन्नानात्वन् तत्कृतान् गुणान्, अन्तःप्रविष्टाधत्त एवं देहगुणान् परः, योऽसौ गुणैर्विरचितो देहोऽयं पुरुषस्य हि, संसारस्तन्निबन्धोऽयं पुंसो विद्याच्छिदात्मनः, तस्माज्जिज्ञासयात्मान मात्मस्थं केवलं परम्, संगम्य निरसेदेतत् वस्तुबुद्धिं तथा क्रमम्, आचार्योरणिराद्यस्य दन्ते वास्युत्तरारणिः, तत्सन्धानं प्रवचनं विद्यासन्धिस्सुखावहः, वैशारदी साति विशुद्धबुद्धिर्धुनोति मायां गुणसंप्रसूताम्, गुणांश्च सन्दह्य यदात्ममेतत् स्वयैच शाम्यत् यसमिद्यथाग्निः अथ ईशां कर्म कर्तॄणां भोक्तॄणां सुखदुःखयोः नानात्वमथ नित्यत्वं लोककालागमात्मनां मन्यसे सर्वभावानां संस्थायौत्पत्तिकीयथा तत्तदाकृतिभेदेन जायते विद्यते च धीः एवमप्यङ्ग सर्वेषां देहिनां देहयोगतः कालावयवतस्सन्ति भावाजन्मादयो सकृत् अत्रापि कर्मणां कर्तु ह्रस्वातन्त्र्यै च लक्ष्यते भोक्तुश्च दुःखसुखयोन्वर्थो विवशं भजे न देहिनां सुखं कैचित् विद्यते विदुषामपि तथा च दुःखं मूढानां वृथाहङ्करणं परम् यदि प्राप्तिं विघातै च जानन्ति सुखदुःखयोः तेऽप्यध्यानविदुर्योगं मृत्युर्न प्रभवेद्यथा कोन्वर्थः सुखयतीनं कामो वा मृत्युरन्तिके आघातनीयमानस्य वध्यस्येव न तुष्टिदः श्रुतै च दृष्टवद्दुष्टं स्पर्धासु यात्ययव्ययैः बहवन्तरायकामत्वात् कृषिवच्चापि निष्फलम् अन्तरायैरविहतो यदि धर्मस् स्वनुष्ठितः तेनापि निर्जितं स्थानं यथा गच्छति तच्छृणु इष्ट्वेह देवता यज्ञैः स्वर्लोकं याति याज्ञिकः भुञ्जीतदेववत्तत्र भोगान् दिव्यान् निजार्जितान् स्वपुण्योपचिते शुभ्रे विमान उपगीयते गन्धर्वैर्विहरन् देवीनां हृद्यवेषधृक् स्त्रीभिः कामगयानेन किङ्किणी जालमालिना क्रीडन्नवेदात्मपातं सुरा क्रीडेषु निर्वृतः तावत्प्रमोदते स्वर्गे यावत्पुण्यं समाप्यते क्षीण पुण्य पतत्यर्वागनिच्छन् कालचालितः यद्यधर्मरतसङ्गादसतां वाजितेन्द्रियः कामात्मा कृपणो लुब्धस्त्रैणो भूतविहिंसकः पशून विधिना लभ्य प्रीतभूतगणान् यजन् नरकानवशो जन्तुर्गत्वा यात्युल्बणन्तमः कर्माणि दुःखो दर्काणि कुर्वन् देहेन तैः पुनः देहमाभजते तत्र किं सुखं मर्त्यधर्मिणः लोकानां लोकपालानां मद्भयं कल्पजीविनाम् ब्रह्मणोऽपि भयं मत्तो द्विपरार्धपरायुषः गुणास्तृजन्ति कर्माणि गुणोऽनुसृजति गुणान् जीवस्तु गुणसंयुक्तो भुङ्क्ते कर्मफलान्यसौ यावत् स्याद्गुणवैषम्यन् तावन्नानात्वमात्मनः नानात्वमात्मनो यावत् पारतन्त्र्यं तदैव हि यावदस्यास्वतन्त्रत्वं तावदीश्वरतो भयम् यैतत्समुपासीरंस्ते मुह्यन्ति शुचार्पिताः काल आत्मागमो लोकस्वभावो धर्म एव च इति मां बहुधा गुणव्यतिकरे सति उद्धव उवाच गुणेषु वर्तमानोऽपि देहजेष्वनपावृतः गुणैर्न बध्यते देहि बध्यते वा कथं विभो कथं वर्तेत विहरेत् कैर्वा ज्ञायेत लक्षणैः किं भुञ्जीतोत विसृजेच्छयितासीतयाति वा एतदच्युत मे ब्रूहि प्रश्नं प्रश्नविदाम्बर नित्यमुक्तो नित्यबद्ध एक एवेति मे भ्रमः इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे दशमोऽध्यायः ॐ श्री